ब्रह्मा गुरुविष्णुगुरुदेवो महेश्वरः गुरुसाक्षात् परब्रह्म तस्मै श्रीगुरुवे नमः श्रीगुरुभ्यो नमः सर्वेभ्यो नमः सर्वेषां स्वागतमस्मिन् न्यायवर्गे अस्माकं प्रवर्तमानविषयः अस्ति एकत्वम् इति गुणस्य निरूपणं तत्र पूर्वं वयम् अन्येषां गुणानां तत्र निरूपणं कृतवन्तः क्रमशः इदानीं तत्र एकत्वं नाम सङ्ख्या इति विष गुणः सङ्ख्यानामकगुणस्य निरूपणं तत्र एकत्वम् इति एकत्वं सङ्ख्यायाः एकः प्रकारः तदनन्तरं तत्र द्वित्वम् एतत् सर्वम् अस्ति तत् इदानीं तत्र एकत्वस्य इदानीं निरूपणं प्रवर्तमानः अस्ति अस्तु तर्हि तत्र योगेन्द्रमहोदयः आरम्भं करोति वा महोदय
एकत्वस्य द्वैविध्यम् इदं च द्वित्व असमवायिकाणि भूतम् एकत्वं द्विविधं भवति जन्ये घटादौ विद्यमानम् अनित्यम् घटोत्पत्ति द्वितीयादिक्षणे रूपादिगुणैः सह उत्पद्यते
कालान्तरभावि
द्वित्वादिकं प्रति असमवायिकारणं च अन्यत्तु एकत्वम् आकाशात्मादि नित्यद्रव्यगतम्
तावत्पर्यन्तं महोदय तर्हि तत्र
इदं च द्वित्व असमवायि कारणीभूतम् एकत्वं द्विविधं भवति द्वित्वसमयिकारणीभूतम् इत्युक्ते अर्थः किं भवति महोदय
प्रथमतया महोदय तत्र एकत्वम् इति गुणः एकत्वं द्विविधं भवति तत्र वाच्ये एषः भागः अवगतः खलु भवता
एकत्वं द्विविधं भवति
एकत्वं द्विविधं भवति अपि एकत्वं तत्र द्वित्वम् इति तत्र द्वित्वम् एकत्वं यदा भवति तत्र पुस्तकद्वयम् अस्ति किन्तु तत्र प्रत्येकस्मिन् पुस्तके एकत्वम् अस्ति खलु तदनन्तरमेव तत्र द्वित्वं भवति नाम पुस्तकद्वयमस्ति इति कृत्वा पुस्तके द्वित्वमपि भवति खलु तत्र एकत्वं द्वित्वस्य असमवायिकारणम् अस्ति कारणीभूतं नाम कारणं कारणीभूतमस्ति इत्युक्ते कारणं भूत्वा अस्ति नाम कारणीभूतं नाम कारणम् एकत्वं द्वित्वं प्रति कारणमस्ति खलु नाम एकत्वं नास्ति चेत् द्वित्वं न भवति खलु अपि तत्र पुस्तकद्वयमस्ति इति चिन्तयतु तत्र पुस्तके एकत्वम् अस्ति पुस्तके द्वित्वम् अस्ति तर्हि द्वित्वस्य द्वित्वम् इति कीदृशपदार्थः द्रव्यं वा गुणः वा कर्म वा किम्
गुणः प्रायः
गुणः सङ्ख्या नाम गुणः खलु तर्हि तत्र द्वित्वम् इति गुणः तस्य समवायिकरणं किम् अस्ति यदि द्वित्वं पुस्तके भवति चेत् समवायिकरणं किं भवति द्वित्वस्य
कारणं भवति
न कारणं किं भवति पुस्तकं द्रव्यम् आश्रयः एव कारणं समवायिकारणम् आश्रयः समीचीनं किन्तु एकत्वमपि कारणं तत्र
द्वित्वस्य कारणम् अस्ति
किन्तु समवायिकारणं नास्ति असमवायिकारणम् अस्ति अतः तत्र द्वित्वं प्रति एकत्वं कारणम् अस्ति किन्तु असमवायिकारणम् अस्ति इति एव उक्तं तत्र कारणीभूतं नाम कारणम्
तदनन्तरं
अर्थः कः एतावत्
एकत्वं द्विविधं भवति
अपि एकत्वं कीदृशमस्ति एकत्वं द्वित्वस्य
द्वित्वस्य असमवायकार कारणमस्ति
अस्ति हा यत् एकत्वं द्वित्व असमवायिकारणमस्ति तस्य एकत्वस्य द्वैविध्यं भवति इति वक्तुं शक्नुमः तादृशं वक्तव्यमपि अस्ति अस्तु महोदय अग्रे जन्ये
जन्ये घटादौ विद्यमानम् अनित्यम् अतः घटादौ उत्पत्तिपूर्वं तु अनित्यमस्ति यतः पूर्वं घटः नास्ति इति प्रायः
तत्र द्वैविध्यम् अस्ति द्वैविध्यं नाम
द्विविधः विविधः
विविधः किन्तु तत्र विधद्वयं समीचीनं इदानीं प्रथमविधं किम् इति उक्तम् अस्तु तर्हि
घटादौ विद्यमानं
तत्र विभक्तिः का तत्र
सप्तमी
घटे झन्ये घटे अथवा झन्ये घटाधौ आदिपदस्य सप्तमी आधौ घटाधौ
विद्यमानम् अनित्यम्
विद्यमानं किम्
एकत्वम्
विद्यमानम् एकत्वम् अनित्यम् तत् प्रथमप्रकारकं तस्य एकत्वस्य प्रथमप्रकारं किमस्ति अनित्यम् इति अस्ति तर्हि तत्र विद्यमानम् एकत्वम् अनित्यम् अग्रे
यदा उत्पत्तिः भवति तदा यः एकादौ य विद्यमानं भवति तत् एकत्वम् अनित्यमस्ति
तत्र विद्यमान झन्ये इत्युक्ते कः झन्यः इत्युक्ते किं
जननसमये
न झन्येति इत्युक्ते जननसमये इति नास्ति तत्र घटः तत्र घटे न झन्ये घटे इत्युक्ते सप्तमी प्रथमविभक्तिरूपं किमस्ति झन्ये घटे इति पदद्वयं तयोः मध्ये विशेषणविशेषभावः अस्ति खलु तर्हि प्रथमविभक्तिरूपं किमस्ति
घटः
झन्यः घटः
झन्यः घटः
झन्यः घटः झन्यः घटः झन्यः घटः इति तत्र विशेषणविशेषभावः घटः कीदृशः
झन्यः
झन्यः झन्यः नाम नित्यः नास्ति तस्य जननम् अभवत्
जननं भवति
जननसमये इति नास्ति यः जन्यः इत्युक्ते यस्य उत्पत्तिः अभवत् पूर्वं नासीत् इदानीम् अस्ति सर्वकालिकवस्तु नास्ति सर्वेषु कालेषु आसीत् इति नास्ति कदाचित् नासीत् इदानीम् अस्ति इत्युक्ते तदा वयं वदामः जन्यः घटः जन्यः इति खलु तर्हि तस्मिन् घटे कीदृशः घटः जन्यः घटः अथ तस्मिन् झन्ये घटे इति तत्र जननम् अभवत् इति एव वार्त किन्तु जननसमये इति वार्त नास्ति महोदय
झन्ये घटे इति वार्ता
झन्ये घटे इत्युक्ते यस्य घटस्य जननम् अभवत् तस्मिन् घटे
विद्यमानम् एकत्वम् अनित्यमस्ति
अनित्यमस्ति तत् एकत्वं सर्वदा आसीत् वा घटे
न
किमर्थम्
घटः एव न आसीत्,
घटः एव नासीत्, अतः एकत्वमपि सर्वदा नासीत्। समीचीनं। हा इदानीम् एकत्वं कदा तत् अनित्यम् इति कृत्वा तस्य उत्पत्तिः कदा भवति?
एकत्पत्ति द्वितीयादिक्षणे रूपादिगुणैः उत्पद्यते।
इत्युक्ते
यदा घटोत्पत्ति भवति द्वितीयक्षणे, जन्य प्रथमे क्षणे तो जन्ये, द्वितीयक्षणे रूपादि।
महोदय तत्र क्लेशः मास्तु, जन्ये इत्युक्ते जननसमये इति नास्ति, तत् त्यजतु। जन्ये इत्युक्ते जननम् अभवत्, कोऽपि बालकः अस्ति, सः विद्यालयं गच्छति, सः जन्यः बालकः, यद्यपि तस्य वयः दशवर्षः, किन्तु सः जन्यः बालकः, तस्य जननम् अभवत्। अस्तु,
आम्,
हा, इदानीं घटोत्पत्ति द्वितीयादिक्षण इत्युक्ते
घट उत्पत्ति द्वितीयक्षणे भवति,
घटोत्पत्ति
द्वितीयक्षणे भवति रूपादिगुणैः सह उत्पद्यते, तदनन्तरं रूपादिगुणैः गुणैः सह उत्पद्यते।
किम् उत्पद्यते?
गुणः उत्पद्यते द्वितीयक्षणे।
द्वितीयक्षणे, समीचीनं। हा, गुणः कीदृशगुणः? रूपादिगुणः।
रूपादि
एकत्वम्, एकत्वं कदा उत्पद्यते तर्हि?
द्वितीयक्षणे।
द्वितीयक्षणे, समीचीनं। हा, प्रथमे क्षणे तत्र घटः निष्क्रियं, निष्क्रियः भवति, निष्गुणः, निर्गुणः, निष्क्रियः भवति। द्वितीयक्षणे एव तत्र रूपं, क्रिया एतत् सर्वं भवति, तदा एव तत्र एकत्वमपि तस्य उत्पत्तिः भवति। समीचीनं। हा, अग्रे
कालान्तरभाविद्वादिकम्, कालान्तरभाविदित्वादिकं प्रति असमवायिकारणं च।
इदानीं
कालान्तरे
द्वित्वं, द्वित्वं प्रति कारणमस्ति वा एकत्वम्?
एकत्वम्, एकत्वम् अस्ति, अतः कालान्तरभावि भविष्यकाले कालान्तरे।
महोदय सोपानेन गच्छामः, अत्र अस्मिन् तत्र शास्त्रे क्रमः भवति, तत्र सोपानेन गन्तव्यं भवति, संरक्ष्य सम्यक् रीत्या अवगमनम् आवश्यकम् अस्ति, अवगमनस्य वदनमपि आवश्यकम् अस्ति। केवलं मनसि अवगमनं भवति चेत् तेन पर्याप्तं नास्ति, तर्हि तत्र यद्वयम् अवगच्छामः तदेव अस्माकं वर्ग, सहैव अस्माकं वर्ग, तदेव अस्माकं अस्माकं वर्गस्य अपि लक्ष्यं खलु? हा, तर्हि तत्र इदानीं यत् अस्ति तत्र सोपानेन गच्छतु, तत्र द्वित्वादिकं प्रति असमवायी कारणम् अस्तु, एकत्वं द्वित्वं प्रति
एकत्वं।
हा, इदानीं कीदृशम् अस्ति द्वित्वं? कीदृशम् अस्ति द्वित्वं? सर्वदा भवति वा? घटः अस्ति, इदानीं तत्र घटः, इदानीं घटस्य उत्पत्तिः अभवत् इति चिन्तयतु, तदनन्तरं घटस्य नाशः, तर्हि उत्पत्तिः अत्र अस्मिन् समये, नाशः अस्मिन् समये, अस्तु। तर्हि तत्र द्वितीयक्षणे, प्रथमे क्षणे एकत्वं नास्ति, किन्तु द्वितीयक्षणा अनन्तरं एकत्वं सर्वदा भवति खलु? किन्तु द्वित्वं किं, सर्वदा भवति वा अथवा
सर्वदा न भवति?
हा, अतः कालान्तरभावी नाम यदा कालः, कालस्य तत्र तदा द्वित्वं कदाचित् आगच्छति, कदाचित् गच्छति, सर्वदा नास्ति, कालान्तरभावी अस्ति द्वित्वम्। तादृशं द्वित्वं प्रति असमवायिकारणं किम् अस्ति?
एकत्वम्,
एकत्वं। तर्हि एकत्वं यत् प्रथमविधम् एकत्वस्य तदस्ति अनित्यं। हा इदानीं महोदय सारांशरूपेण वदतु यत् भवान् पठितवान् एतावत्।
द्वित्वम् एकत्वं द्विधमस्ति प्रथमं तु, अपि च एकत्वं द्वितस्य असमवायकारणमस्ति।
उत्तमं। हा
प्रथमे क्षणे घटादौ उत्पत्तिः भवति, द्वितीयक्षणे रूपादिगुणाः उत्पद्यते, कालान्तरे द्वित्वं यः एकत्वं यः असमवायकारणमस्ति तेन द्वित्वं कालान्तरे भवति भवति वा न भवति इति निश्चयेन वक्तुं न शक्नुमः।
हा समीचीनं महोदय। हा तत्र किन्तु तस् द्वित्वं प्रति असमवायकारणम् एकत्वं
असमवायकारणम् अस्ति एकत्वम्
एकत्वम्। उत्तमं महोदय, धन्यवादः। हा समीचीनम्, अस्तु धन्यवादः महोदय। अस्तु अग्रे इदानीं अशोक महोदय अग्रे। क्षम्यतां, भवान् गतवर्गे न पठितवान् महोदय, क्षम्यताम्। हा इदानीं पठतु।
अस्तु महोदय, अन्यत्तु एकत्वम् आकाश आत्मादि नित्यद्रव्यगतं तस्य आश्रयस्य नित्वत्यात् नित्यत्वात् तद् एकत्वम् अपि आत्मत्वजातिवत् नित्यं भवति च तत् द्वौ आत्मानौ आकाशात्मानौ इत्यादि प्रतीतिविषयद्वित्वं प्रति असमवायि कारणम् उत्पद्यमानत्वात् एव द्वित्वादीनां सिद्धम् अनित्यत्वम्। अन्यत्तु एकत्वम् आकाशात्मादि नित्यद्रव्यगतं, पूर्वम् अनित्य एकत्वं प्रति चिन्तयामः। अन्य विध एकत्वम् अपि अस्ति, आकाशे आत्मनि इति नित्यद्रव्ये अस्ति एकत्वम् इति।
नित्यद्रव्यगतं नाम नित्यद्रव्ये विद्यमानम्,
तस्य आश्रयस्य नित्यत्वात् तद् एकत्वम् अपि आत्मजातिवत् नित्यम्। तस्य आश्रयः नित्यः अस्ति, अतः आश्रये सर्वदा एकत्वमपि अस्ति, अतः एकत्वम् अपि नित्यं, यथा आत्मत्वजाति यथा नित्यं तथैव एतदपि नित्यम् इति चिन्तयामः।
हा सत्यं महोदय। हा तत्र आत्मत्वजातिवत् नाम तथा आत्मत्वम् इति जाति भवति आत्मनि, आत्मा व्यक्तिः अस्ति, जातिः तत्र आत्मा, तत्र आत्मनः जाति, तत्र आत्मत्वम् इति जाति, तत्तु नित्यमस्ति, तथैव तत्र एकत्वमपि आत्मनि विद्यमानम् एकत्वमपि नित्यमस्ति। हा
भवति च तत् द्वौ आत्मानौ आकाशात्मानौ इत्यादि प्रतीतिविषयद्वित्वं प्रति असमवायिकारणं, तत् द्वित्वम् अपि द्वित्वं प्रति असमवायिकारणम्। उदाहरणं दत्तं, यदि द्वौ आत्मनौ स्तः तर्हि आत्मनि द्वित्वम् अस्ति, आकाश एक एव, किन्तु यदि वयं वक्तुम् इच्छामः यत् आकाशः च आत्मनः च आत्मा च इति, तर्हि आकाशात्मानौ इति आहत्य वदामि चेत् तेषां द्वित्वम् अस्ति।
समीचीनं महोदय। अत्र अपि तत्र इत्यादि प्रतीतिविषयद्वित्वं, तत्र द्वित्वं कीदृशमस्ति?
ज्ञानस्य विषयः इति प्रतीति
ज्ञानस्य विषयः प्रतीतिविषयः ज्ञानस्य विषयः द्वित्वम् अस्ति तत्र द्वौ आत्मानौ यदि वयं द्वौ आत्मानौ इति चिन्तयामः तत्र तस्य यदि वयं तत् शृण्मः तत्र यदि तादृशशब्दप्रयोगः भवति तदा श्रोतुः मनसि ज्ञानं तत्र आत्मनि ज्ञानम् उत्पद्यते तस्य कीदृशं ज्ञानं तत्र ज्ञानस्य विषयः कः द्वित्वं तत्र द्वित्वम् अस्ति इति तत् द्वित्वं प्रति एकत्वम् असमवायि कारणं भवति इति
उत्पद्यमानत्वात् एव द्वित्वादीनां सिद्धम् अनित्यत्वं द्वित्वस्य द्वित्वस्य तृतीयस्य आदि उत्पदि उत्पत्ति भवति यतोहि उत्पत्ति भवति तर्हि तद् अनित्यमस्ति
अतः अनित्यं तस्य अनित्यत्वं तु सिद्धम् अस्ति यतोहि उत्पत्ति अभवत् इति कृत्वा एव तत्र अनित्यम् इति वक्तुं शक्नुमः समीचीनं हा अग्रे महोदय तदेतत् सर्वं
एतत् सर्वम् अनुसन्धाय उक्तम् अन्नं भट्टैः एकत्वं नित्यम् अनित्यञ्च नित्यगतं नित्यम् अनित्यगतम् अनित्यं द्वित्वादिकं तु सर्वम् अनित्यमेव इति अतः तर्कसङ्ग्रहग्रन्थस्य
लेखकः
अन्नं भट्टैः उक्तम् एकत्वं नित्यम् अनित्यञ्च नाम एकत्वं द्विविधं नित्यम् अपि अनित्यमपि द्विविधं
भवति
नित्यगतं नित्यं नित्य पदार्थे विद्यमानम् एकत्वं नित्यम् अनित्यगतम् अनित्यम् अनित्यपदार्थे विद्यमानम् एकत्वम् अनित्यं द्वित्वादिकं तु सर्वम् अनित्यमेव द्वित्वादिकं सर्वदा अनित्यमेव अस्ति द्विविधं नास्ति एकविधमेव
एकत्वमेव तत्र नित्यम् अनित्यमस्ति अन्येषां तत्र प्रकाराणां तत्र अनित्यम् इति एव वक्तुं शक्नुमः तत्र नित्यं कदापि न भवति समीचीनं महोदय अस्तु अग्रे तत्र अत्र
च नित्यपदेन आकाशादयः ग्राह्याः पृथिव्यादि चतुष्टयस्य परमाणवः अपि शक्याः ग्रहीतुम् अनित्याश्च घटादयः लक्षणनिरूपणं तु कालग्रन्थवत् आलोचनीयम् अत्र च नित्यपदेन आकाशादयः ग्राह्यः पूर्वं नित्यगतं नित्यमिति दत्तं नित्यं कः इति अत्र उक्तम् उदाहरणार्थम् आकाशः आदि नित्य पदार्थः नित्यम् इति लिखितं पृथिव्यस्य पृथिवी वायु तेषां परमाणवः अपि नित्यम् अतः तर्हि अपि एकत्वं नित्यम् एव इति अनित्या च घटादयः उदाहरणं घटः पटः आदि अनित्याः लक्षणनिरूपणं तु कालग्रन्थवत् आलोचनीयं वक्ष्यमाणः तस्य लक्षणवाक्यं किम् इति अग्रे दत्तम्
न महोदय अत्र तत्र वयं तत्र वयं कालस्य निरूपणं कृतवन्तः खलु
आं तदेव एतदपि
तादृशम् अत्रापि तादृशं चिन्तनेन लक्षणस्य निरूपणं कर्तुं शक्यते इति नाम तत्र यथा काल यद्यपि तत्र नित्यः एकः एव अस्ति इति तत्र नाम कालः कालस्य विषये यत् चिन्तनमासीत् ते तादृशचिन्तनेन तादृशेन चिन्तनेन एतस्य अपि लक्षणं लक्षणनिरूपणं कर्तुं शक्यते इति उक्तं तावदेव हा तत्र अपि अस्मिन् विषये किञ्चित् अग्रे उक्तमपि अस्ति हा अतः यद्भवान् उक्तवान् तत् समीचीनमेव तत्र पूर्वमपि कृतं किन्तु अग्रे अपि किञ्चित् भवति तत्र सङ्ख्याविषये समीचीनं महोदय अस्तु धन्यवादः कोऽपि प्रश्नः अन्येषां कोऽपि प्रश्नः एतावत्
ग्रन्थ इति अर्थः कः
ग्रन्थ इत्युक्ते तत्र साधारण नाम ग्रन्थः इति भिन्नग्रन्थः नास्ति महोदय केवलं कालग्रन्थः इत्युक्ते यस्मिन् भागे अस्मिन् पुस्तके न अथवा नाम तर्क हा नाम विद्याधरी इति पुस्तके यस्मिन् भागे कालस्य निरूपणं कृतम् अथवा कालस्य चर्चा अभवत् तस्य नामकरणमस्ति कालग्रन्थः इति तावदेव
अस्तु महोदय धन्यवादः
अध्यायः अपि तत्र तेन सूचितः अस्ति केवलम् अध्यायः अस्ति चेत् कालग्रन्थ इत्युक्ते ओ यस्मिन् अध्याये कालनिरूपणम् अभवत् इति तावदेव अस्तु अग्रे सरामः तर्हि तर्हि तत्र इदानीं विमला भगिनी पठितुं शक्नोति वा
आं महोदय नमस्कारः
नमस्कारः भगिनि
सङ्ख्यालक्षणे परिष्कारः कालनिरूपणे पृष्ठसङ्ख्या पञ्चपञ्चाशत् अतीतादिव्यवहार इत्यादिरूपे अतीतत्वं प्रकारः इति चिन्तितम् अत्र एकत्वादिव्यवहारहेतुः इति लक्षणकारणात् लक्षणकरणात् एकत्वादिरूपासङ्ख्या एव व्यवहारेण जायमाने ज्ञाने प्रकारविधया ग्राह्या तथा च यावत् एकत्वद्वित्वादिरूपां सङ्ख्यां न विद्मः तावत् अन्यं बोधयितुम् अयम् एकः इमौ द्वौ इति शब्दप्रयोगं कर्तुं न शक्नुमः तां च सङ्ख्यां ज्ञात्वा यदा अयम् एकः इति प्रयोगं कुर्मः तदा अपरस्य तेन ज्ञानम् उत्पद्यते अयम् एकः इति आकारकम् तत्र पुरोवर्तिघटादिः विशेष्यविधया भासते एकत्वं द्वित्वं च प्रकारविधया भासते सा च प्रकारतायाः अधिकरणे विद्यमानेन एकत्वत्वेन द्वित्वत्वेन स्वा अवच्छिद्यते अग्रसरणीयं वा महोदय
तत्र प्रायशः अस्तु अस्तु भगिनि तत्र अस्तु तत्र प्रायशः भगिनि इदानीं अहं चिन्तितं तावत् सम्यक् एव इदानीं तत्र एतावत् तत्र एतावत् किञ्चित् वदतु भगिनि नाम शक्नुमः इति
अस्तु
सर्वं मास्तु सर्वं मास्तु तावत् पर्यन्तं
यदा वयं कालनिरूपणं कृतवन्तः अतीतादिव्यवहारहेतुः कालः इति अस्माभिः निरूपितम्
तत्र अतीतादिव्यवहारः हेतुः इति तस्मिन् विषये यत् स्मरति तत् किञ्चित् स्मारयतु
व्यवहार इत्युक्ते ज्ञानजनकशब्दप्रयोगः अतीत इति यत् गतं कालः यत् अतीतम् इति तस्य व्यवहार इत्यादिरूपे इत्युक्ते कालः अतीतः इत्युक्ते कालः
कालस्य लक्षणम् अस्ति आसीत्
अतीतादिव्यवहारहेतुः
हेतुः नाम यदि तत्र कारणम् अस्ति कालः तादृशव्यवहारं प्रति कारणम्
अस्ति
नाम यदि कालः नासीत् तदा तादृशः व्यवहारः न भवति, न जायते. अतः कालः अस्ति इति कृत्वा तादृशव्यवहारः भवति, अतः अतीतादिव्यवहारहेतुः इति वदामः. तर्हि
अत्र यथा पञ्चपञ्चाशत् प्रश्नसङ्ख्या यदस्ति महोदय, तत्र अतीतत्वस्य विषये यत् अस्ति,
पुस्तकमस्ति खलु भगिनि भवत्याः पार्श्वे?
अस्तु महोदय, अस्तु. घटे यथा घटः अतीतः इति यदि वदामः वयं, घटः घटे विशेषता अस्ति, ज्ञानस्य विशेषता, अपि च अतीतत्वे प्रकारता अस्ति इति
अस्ति. उत्तमं भगिनि, तावदेव वक्तव्यम्, उत्तमम्. अस्तु,
तथा एव अत्र, तथा एव अत्र एकत्वाद्व्यवहारहेतुः इति लक्षणकरणात् एकत्वादिरूपा सङ्ख्या एव व्यवहारेण जायमाने ज्ञाने प्रकारविधया ग्राह्य, इत्युक्ते अस्माकं ज्ञाने प्रकारता किमस्ति अपि च विशेषता किमस्ति इति अस्माभिः चिन्तनीयम्. अत्र एकत्व इति सङ्ख्या, तत् प्रकारता इति अस्ति.
इति यदि वयं वदामः लक्षणकरणात्,
लक्षणकरणात्
नाम एकत्वादिव्यवहारहेतुः तत्र सङ्ख्या इति यदि वयं
लक्षणवाक्यम्, अस्तु,
लक्षणसङ्ख्यायाः लक्षणवाक्यं कुर्मः, एकत्वादिव्यवहारहेतुः
सङ्ख्या
इति लक्षण यदि कुर्मः तर्हि लक्षणकरणं तादृशं भवति चेत् तदा
एकत्वादि सङ्ख्या व्यवहारेण जायमाने ज्ञाने एकत् इति वक्तत्वेन यदि वदामः तदा अस्माकं ज्ञाने ते शब्दप्रयोगेन किं ज्ञानम् उत्पद्यते इति
सत्यं,
तदेव प्रकारता इति चिन्तनीयम् इति
तस्मिन् ज्ञाने
एकत्वादिरूपः
सङ्ख्या एव प्रकारता
अस्ति,
प्रकारः भवति. पुनः एकवारं वदतु भगिनि.
यदा वयम् एकत्व इति सङ्ख्यायाः विषये वदामः, कस्यचित् वस्तुः विषये वदामः, तदा एकत्व
तत्र एकः घटः इति स्वीकुर्मः,
तर्हि तत्र घटः अस्माकं ज्ञानस्य विषयः अस्ति. तत्र यदा एकत्व एकः घटः इत्युक्ते तत् एकत्वं तस्य प्रकारता अस्ति, सा प्रकारता घटे विशेष्यतायां.
समीचीनं, तर्हि उत्तमं भगिनि. तर्हि एकः घटः इति यदि वदामः इति शब्दप्रयोगः इति नाम कोऽपि करोति अथवा एकः घटः इति चिन्तयामः तर्हि घटः इति विशेष्यः
अपि च एकत्व इति
तत्र विशेषणम् अस्ति. नाम एकत्ववत् घटः इति भवति, नाम एकत्ववान् एकत्ववान् घटः, नाम घटे एकत्वं वर्तते इति एकत्ववान् घटः इति रूपं भवति विशेषणविशेषभावः. तर्हि एकत्वम् इति
अस्ति,
इति घटे अस्ति, तर्हि घटः विशेष्यः, घटे विशेष्यता अस्ति. उत्तमं भगिनि. अपि एकत्वे प्रकारता
अस्ति,
अतः सङ्ख्या एकत्वादिरूपा सङ्ख्या एव प्रकारः भवति, नाम तस्यां सङ्ख्यां प्रकारता वर्तते. यथा तत्र पञ्चपञ्चाशत् तमे पुटे यत् चित्रमस्ति तत्र वयं तत्र कालः इति स्थाने किं स्थापितुमिच्छामः, तत्र कालः इति स्थाने
सङ्ख्या
यदि तत्र सङ्ख्या इति स्थापयामः तत्र अन्यत् एकः घटः इति वदामः तर्हि तत्र
एकत्वनिष्ठप्रकारतः निरूपित
हा इति
घटनिष्ठविशेषतानिरूपितज्ञानं ज्ञाननिष्ठकार्यतानिरूपितकारणतायाः आश्रयशब्दप्रयोगः तस्य कार्यतायाः तस्मिन् शब्दप्रयोगे निष्ठकार्यतायाः आश्रयः कारणता रूपेण घटे
अस्ति निरूप्यनिरूपकभावः कार्यतानिरूपितसङ्ख्या कारणतायाः आश्रयः
आम् आम् कारणतः आश्रयसङ्ख्या
अथवा आश्रयत्वं सङ्ख्यायाः लक्षणम् आश्रयत्वं सङ्ख्यायाः लक्षणम् इति तादृशं भवति इति उत्तमं भगिनि हा अस्तु समीचीनं हा हा इदानीम् अग्रे तथा च
कुत्र अस्ति तथा च यावत् एकत्वद्वित्वादिरूपां सङ्ख्यां न विद्मः तावत् अन्यं बोधयितुम् अयम् एकः इमौ द्वौ इति शब्दप्रयोगं कर्तुं न शक्नुमः तेन कारणे अस्माभिः एकत्वम् इत्युक्ते किम् इति ज्ञातव्यम् एकत्वमिति किम् इति ज्ञातव्ये तेन द्वित्वम् उद्भवति तर्हि यदि वयं जानीमः तर्हि अन्यानपि बोधयितुं वयं शक्नुमः इति
नाम यदि एतत् अस्माकं ज्ञाने न भासते तत्र एकत्वम् इति अस्माकं ज्ञाने एव न भासते केवलम् अयं घटः इति चिन्तयामश्चेत् अयं घटः इति यदि वदामः तत्र एकत्वं न भासते किन्तु एकः घटः इति यदि वयं वदामः तस्मिन् तदा अस्माकं मनसि अपि भासते अपि तादृशशब्दप्रयोगेन अन्यस्मिन् आत्मनि अपि तत्र ज्ञानं जनयितुम् उत्पादयितुं शक्नुमः अतः शब्दप्रयोगं प्रति तत्र कारणं तत्र अस्माकं ज्ञानमपि भवेत् नो चेत् अन्यं बोधयितुं न शक्नुमः अतः तादृशज्ञानं रूपं सङ्ख्यां न विद्मः तावत् तत्र वयं शब्दप्रयोगं कर्तुं न शक्नुमः अयम् एकः अथवा इमौ द्वौ इति नाम सङ्ख्यायाः ज्ञानबोधनं न कर्तुं शक्नुमः इति अस्ति समीचीनं भगिनि हा समीचीनम् अस्तु अग्रे तर्हि तत्र नरसिंहगिरे महोदय अग्रे
धन्यवादः
भगिनि हा नमस्कारः महोदय महोदय अस्ति वा
हा हा
हा तत्र तां च
सङ्ख्या इति प्रयोगः महोदय
इतः महोदय तां च सङ्ख्यां ज्ञात्वा
तां च सङ्ख्यां ज्ञात्वा यदा अयमेकः इति प्रयोगं कुर्मः तदा परस्य तेन ज्ञानमुत्पद्यते अयमेकः इत्याकारकं तत्र पुरोवर्तिघटादि विशेष्यादिविधया भासते एकत्वं द्वित्वं वा प्रकारविधया भासते स च प्रकारता प्रकारतयाः अधिकरणे विद्यमानेन एकत्वेन द्वित्वत्वेन वा अवच्छिद्यते
तावत्पर्यन्तं महोदय
तां च सङ्ख्या ज्ञात्वा यदा अयमेकः इति प्रयोगं कुर्मः तदपरस्य तेन ज्ञानमुत्पद्यते अयमेकः इत्याकारः यदि एकसङ्ख्यां ज्ञात्वा वयम् एकः द्वे इति प्रयोगं कुर्मः चेत् तस्य ज्ञानम् आवश्यकम् अस्माकं कृते एकमिति किम् अस्ति द्वे इति किम् अस्ति इति तादृशज्ञानम् अस्ति चेदेव वयम् अयमेकः इमौ द्वौ इति प्रयोगं कर्तुं शक्नुमः तत् पुरोवर्तिघटादिः विशेष्य
महोदय तत्र महोदय समीचीनं
भवति नाम एकमिति प्रकारतः
महोदय समीचीनं तत्र नाम एक शब्दप्रयोगं कर्तुं किम् आवश्यकं तत्र सङ्ख्यायाः ज्ञानम् आवश्यकं प्रथमतया खलु आवश्यकं ज्ञानम् आवश्यकम् अपि सङ्ख्यायाः ज्ञानं पर्याप्तमस्ति. यदि वयं सङ्ख्यायाः ज्ञानम् अस्माकम् अस्ति तदा वयम् अन्यं बोधयितुं शक्नुमः अयम् एकः घटः इति शब्दप्रयोगेन अन्यस्मिन् आत्मनि ज्ञानं जनयितुं शक्नुमः खलु. हा अतः एव तत्र ज्ञात्वा सङ्ख्या ज्ञात्वा यदि वयं प्रयोगं कुर्मः तदा अपरस्य तेन ज्ञानम् उत्पद्यते. अपि तात् कीदृशं ज्ञानम् उत्पद्यते? अयमेकः घटः इति आकारकं ज्ञानम् उत्पद्यते खलु. हा तर्हि शब्दप्रयोगार्थं सङ्ख्यायाः ज्ञानम् आवश्यकम्, अपि अन्यत् किमपि न आवश्यकं, तेन पर्याप्तम् इति. अवगतं खलु महोदय?
शब्दप्रयोगस्य कारणं भवति तादृशज्ञानम्.
हा यदि यदि अपि तादृशज्ञानं पर्याप्तमस्ति, तादृशं ज्ञानमस्ति चेत् अन्यस्य ज्ञानस्य आवश्यकता नास्ति. तेन वयम् अयम् एकः घटः इति शब्दप्रयोगं कृत्वा अन्यस्य ज्ञानम् उत्पादयितुं शक्नुमः. तादृशमेव ज्ञानं. हा अस्तु अग्रे इदानीं. हा
तत्र पुरोवर्ति पुरोवर्ति घटादिः विशेष्यतविधया भासते, एकत्वं द्वित्वं च प्रकारविधय भासते. अत्र घटः इति विशेषमस्ति, एकत्वं द्वित्वं वा प्रकारता अस्ति, तादृशसम्बन्धः अस्ति तेन मध्ये.
घटे
विशेषता एकत्वे प्रकारता इति.
समीचीनं महोदय. तत्र पुरोवर्ति घटादिः इत्युक्ते
पूर्वं यत् वयं पठितवन्तः तत् घटं
न पुरोवर्ति नाम अस्माकं पुरतः वर्तते.
पुरतः अस्तु अस्तु पुरोवर्ति
पूर्वम् इति नास्ति, पुरोवर्ति पुरतः वर्तते. पुरोवर्ति घटः पुरोवर्ति घटादिः. तदा एव तत्र यदि वयं घटं पश्यामः तदा एव तत्र अस्माकं ज्ञानम् उत्पद्यते. ओ अयं घटः इति, तत्र भूतले घटः अस्ति, घटः अस्ति, अयं घटः इति ज्ञानम्. अपि एकः घटः इति यदि ज्ञानं भवति तर्हि तत्र विशेष्यता कुत्र अस्ति?
विशेषता घटे घटे भवति, प्रकारता एकत्वे
एकत्वे भवति. समीचीनं. हा तर्हि तत्र यदि तत्र पञ्चपञ्चाशत्तमे पुटे तत्र चित्रमस्ति, तत्र विशेष्यता घटे भवति, अपि प्रकारता सङ्ख्यायाम् एकत्वं वा द्वित्वं वा तस्मिन् तत्र प्रकारता भवति. समीचीनं महोदय. हा अस्तु अग्रे इदानीं.
प्रकारता प्रकारतायाः अधिकरणे विद्यमानेन एकत्वेन द्वित्वत्वेन वा अवच्छेद्यते.
एकत्वत्वेन एकत्वत्वेन
अत्र त्वं प्रत्यय योजितमस्ति, तस्य भावः एकत्वस्य भावः एकतत्वं.
समीचीनं महोदय. हा तथैव
तेन तत् अवच्छिद्यते इति अस्ति, अवच्छिन्न
तादृशम्
अपि वक्तुं शक्नुमः वयं.
किञ्चित् वदति वा महोदय तत्र?
तत्र अवच्छेदक उपयुज्य तत्र वाक्यं रचितमस्ति. अत्र प्रकारता एकत्वनिष्ठप्रकारता निरूपित विशेष्यतानिरूपित घटं वा महोदय?
हा महोदय, तत्र साधारणतया वयं किं वदामः, तत्र यदि तत्र पञ्चपञ्चाशत्तमे पुटे अथवा अत्रापि प्रायशः अत्र एव अस्ति इति मन्ये. हा तर्हि तत्र अत्र चित्रम् अस्ति महोदय, तत्र किञ्चित् पश्यामः. तर्हि हा तत्र चित्रे किं किम् अस्ति इति किञ्चित् वदतु महोदय. तत्र न घटे घटे किम् अस्ति? घटे विशेषता अस्ति. समीचीनं, घटे विशेष्यता अस्ति, एकत्वे प्रकारता अस्ति.
प्रकारता
अपि तत्र एकत्वं घटः एकः घटः इति किं भवति एकः घटः इति तत्र घटः अपि एकत्वं विषयः भवति ज्ञानस्य खलु साक्षात् ज्ञानं नास्ति एकः घटः इत्युक्ते घटः ज्ञानं नास्ति किन्तु घटः किं भवति ज्ञानस्य
विषयः
विषयः हा तर्हि तत्र विषयता एव वयं विशेष्यता प्रकारता इति वयं कृतवन्तः खलु तस्य भागं कृतवन्तः खलु विषयता केवलं नाम तत्र घटे विषयता अस्ति एकत्वे अपि विषयता अस्ति चेत् तत्र भ्रमः जायते इति कृत्वा वयं घटे विद्यमान विषयतायाः नामकरणं विशेष्यता खलु तादृशं कृतवन्तः खलु महोदय तर्हि तत्र विशेष्यता तत्र तर्हि प्रकारता निरूपकं प्रकारतया प्रकारता निरूपकं ज्ञानं घटनिष्ठविशेष्यतानिरूपकं ज्ञानम् इति तादृशं भवति अपि ज्ञाने किमस्ति
ज्ञाने कार्यता अस्ति
किमर्थं कार्यता अस्ति यतोहि
तादृश तत्र
ज्ञानं केन जातं ज्ञानम्
शब्दप्रयोगेन जातं
हा शब्दप्रयोगेन अन्य कोऽपि उक्तवान् अथवा उक्तवती एकः घटः इति तदा मम मनसि ज्ञानम् उत्पद्यते तर्हि शब्दप्रयोगेन ज्ञानम् उत्पद्यते तर्हि शब्दप्रयोगे कारणता ज्ञाने
कार्यता
अपि तत्र सः अथवा या यः उक्तवान् अथवा या उक्तवती तस्मिन् अथवा तस्यां मनसि ज्ञानमासीत् सङ्ख्यायाः ज्ञानं खलु तर्हि सङ्ख्यायां कारणता अस्ति कारणतानिरूपितकार्यता शब्दप्रयोगे इदानीं समीचीनं महोदय किञ्चित् अपि वदतु तदनन्तरम् अन्य कोऽपि करोति इदानीं तत्र विशेष्यता घटे वर्तते सा विशेष्यता तत्र केन अवच्छिन्ना अस्ति
तत्र घटत्वेन अवच्छिन्ना
घटत्वेन अवच्छिन्ना घटत्वेन अवच्छिन्न नाम एषा
विशेषता निरूपितज्ञानम् अनन्तरं एकत्वेन अवच्छिन्न प्रकारता निरूपितज्ञानं तन्निष्ठकार्यतानिरूपितकारणताश्रय शब्दप्रयोग तन्निष्ठकार्यताश्रयतकारणता तन्निष्ठकार्यतानिरूपितकारणताश्रय सङ्ख्या
इति भवति उत्तमं महोदय हा तर्हि एकत्वे प्रकारता अस्ति अपि तत्र यदि वयं प्रकारतायाः अवच्छेदकः कः इति वदामः तत्र अवच्छेदकः कुत्र वर्तते अवच्छेदकः अपि अवच्छेद्यः तयोः कीदृशः सम्बन्धः भवेत्
अवच्छेदक इति न्यूनं भवति अवच्छेद्य इति बृहत् भवति
न न न तत्र किन्तु तेषाम् अधिकरणं कीदृशं तत्र विशेष्यता घटे वर्तते घटत्वं कुत्र वर्तते
तत्र घटत्वं घटे वर्तते विशेष्यता अपि घटे घट इति अधिकरणं तत्र
हा तत्र अवच्छेदकः अवच्छेद्य तयोः समानाधिकरणं भवेत् खलु हा तथा एव तत्र प्रकारता एकत्वे अस्ति प्रकारता केन अवच्छिन्ना एकत्वेन अतः एकत्वं नाम तत्र यथा घटस्य धर्मः घटत्वं तथैव एकत्वस्य धर्मः एकत्वं तेन अवच्छिन्न प्रकारता इति अतः एव तत्र यत् भवान् पठितवान् तत्र एकत्वं इति एव अस्ति खलु महोदय द्वित्वेन इति खलु
आमां
खलु महोदय तत्र त्व इति द्विवारम् आगतं खलु
आमां विशेष विद्य एकत्वेन द्वित्वेन वा अवच्छिद्यते
हा हा अतः तत्र अवच्छिद् अवच्छेदकः धर्मः अस्ति तत्र एकत्वत्वं न तु एकत्वं एकत्वम् इति तत्र एकत्वे प्रकारता अस्ति किन्तु एकत्वत्वेन अवच्छिन्ना अस्ति सा प्रकारता अस्तु समीचीनं महोदय अस्तु धन्यवादः तत्र चन्द्रमति भगिनी अग्रे
अहं गतकक्षायां न
महोदय अहं स्मरामि अतः तत्र अहं किञ्चित् चिन्तितवान् यदि भवान् पठितुं शक्नोति न वा इति किन्तु सम्यक् रीत्या उक्तवान् महोदय धन्यवादः
श्रुतवान् तत् रेकार्डिङ्ग् श्रुतवान् परन्तु धन्यवादः
कोऽपि प्रश्नः अस्ति वा महोदय भवतः कोऽपि प्रश्नः वर्तते वा
इदानीम् अवगतं महोदय
अस्तु समीचीनम् अस्तु चन्द्रमति भगिनी इदानीं अग्रे घटे
घटे विद्यमानप्रतियोगितायाः खडत्वेन अवच्छेदवत् तथा च एकत्वत्वावच्छिन्न प्रकारतानिरूपित खडादिनिष्ठ विशेष्यतानिरूपित निरूपक ज्ञाननिष्ठ कार्यतानिरूपित कारणताश्रयशब्दप्रयोगनिष्ठ कार्यतानिरूपित कारणताश्रयः सङ्ख्या तादृशकार्यनिरूपितकारणताश्रयत्वं सङ्ख्यायाः लक्षणम्
इदानीं तत्र एकवारं तत् पठतु भगिनि तत्र घटे
घटे विद्यमान प्रतियोगितायाः खडत्वेन अवच्छेदवत् खडे विद्यमानप्रतियोगितायाः खडत्वेन अवच्छेदवत्
नाम तत्र घटः वर्तते घटः वर्तते तत्र घटे प्रतियोगिता वर्तते प्रतियोगिता वर्तते इत्युक्ते किं प्रतियोगिता अस्ति चेत् प्रतियोगिता
खडः एव
घटस्य प्रतियोगी तत्र न घटस्य प्रतियोगिना तत्र घटः अस्ति चेत् तत्र इदानीं घटः नास्ति चेत् किं वदामः घटः नास्ति इति स्थाने अन्यत्
घटस्य अभावः
घटस्य अभावः घटाभावः समीचीनं भगिनि
घटाभावस्य प्रतियोगिता घटः
घटाभावस्य प्रतियोगिता घटे वर्तते वर्तते अथवा प्रतियोगी घटाभावस्य प्रतियोगी घटः इति वदामः समीचीनं भगिनि तर्हि घटः साक्षात् प्रतियोगी अतः तस्मिन् प्रतियोगिता वर्तते घटाभावे किं वर्तते
घटाभावस्य प्रतियोगी
न घटाभावस्य
अनियोगिता घटाभावे प्रतियोगिता वर्तते
भावे प्रतियोगिता वर्तते घटाभावे अनियोगिता वर्तते घटे प्रतियोगिता वर्तते प्रतियोगिता अनियोगिता इति युक्ते तत्र विरोधधर्मः खलु यत्र घटः अस्ति तत्र घटाभावः नास्ति यत्र घटाभावः अस्ति तत्र घटः नास्ति इति तत्र विरोधधर्मः इति वयम् आरम्भे पठितवन्तः खलु तर्हि प्रतियोगिता अनियोगिता धर्मः इदानीं प्रतियोगिता तत्र घटाभावस्य प्रतियोगिता नाम घटाभावनिष्ठ अनियोगिता निरूपितप्रतियोगिता कुत्र कुत्र वर्तते पटे वर्तते वा आकाशे वर्तते वा एषा प्रतियोगिता
पटे वर्तते
घटे वर्तते
घटे वर्तते पटे वर्तते
अन्यत्र कुत्र भवति भगिनि
खडस्य प्रतियोगिता खडे एव वर्तते खडस्य प्रतियोगिता खडे एव वर्तते
तु घटे एषा प्रतियोगी एषा प्रतियोगिता यत् यः घट तत्र घटाभावनिष्ठ अनियोगिता निरूपितप्रतियोगिता आकाशे वर्तते वा
न
केवलं घटे एव वर्तते
केवलं घटे एव
हा अतः वयं वदामः घटत्वावच्छिन्ना इति खलु नाम यत्र घटत्वं वर्तते तत्र एव प्रतियोगिता अपि भवति अपि यत्र प्रतियोगिता भवति तत्र एव घटत्वमपि भवति इति तत्र अवच्छेदकः धर्मस्य अवच्छेदः अवच्छेद्या इति विषये वयं तत्र करपत्रमपि पठितवन्तः खलु धर्म अत्र अवच्छेदकः धर्मः वर्तते धर्मः अस्ति घटत्वं तर्हि तत्र प्रतियोगितायाः घटे विद्यमानप्रतियोगितायाः घटत्वेन अवच्छेदवत् नाम यथा सः कः
खडे विद्यमानप्रतियोगितायाः खडत्वेन अवच्छेदवत्
अर्थः कः
खडे विद्यमानप्रतियोगितायाः खडत्वेन अवच्छेदवत् इत्युक्ते खडः एव खडस्य
नाम घटे विद्यमान प्रतियोगिता इति वयम् उक्तवन्तः प्रतियोगिताः अवच्छेदकः कः किं प्रतियोगितायाः
प्रतियोगितायाः अवच्छेदकः खडः एव
न धर्मः
खडत्वं
घटत्वं नाम कुत्र वर्तते इति न तत्र आश्रये विद्यमानः धर्मः वक्तव्यः तर्हि घटत्वावच्छिन्न
घटत्वं खडे
घटत्वं घटे एव वर्तते इति कृत्वा प्रतियोगिता केन अवच्छिन्ना इत्युक्ते घटत्वावच्छिन्ना इति वदामः खलु
अस्तु
तर्हि घटत्वेन अवच्छिद्यते प्रतियोगिता इति खलु
प्रतियोगिता खडत्वावच्छिन्न प्रतियोगिता
इति भवति खलु समीचीनं हा किन्तु तद् अत्र उक्तं किमर्थम् उक्तम् अत्र एतद् वयं जानीमः किमर्थं तदुक्तम् अस्य वाक्यस्य महत्त्वं किं किमर्थम् उक्तम् अत्र
विद्यमानप्रतियोगितायाः अवच्छेदवत्
अन्य कोऽपि वदति वा तत्र हा किमर्थम् एतद् वाक्यम् अत्र उक्तम् तत्र अन्तिमपद तत्र वत् इति अस्ति खलु भगिनि इत्युक्ते किम् अत्र
तादृशं
तादृशं हा उत्तमं तादृशम् नाम यथा घटे विद्यमानप्रतियोगितायाः अवच्छेदकः घटत्वम् इति धर्मः भवति अथवा तादृशमेव प्रकारतायाः अधिकरणे विद्यमानेन एकत्वेन अवच्छिद्यते प्रकारता एकत्वेन अवच्छिद्यते नाम एकत्वम् इति आश्रयः तस्य एकत्व आश्रयः प्रकारता तत्र वयं दृष्टवन्तः तत्र प्रकारता एकत्वे अस्ति अधिकरणम् एकत्वम् एकत्वस्य धर्मः कः एकतत्वम् एकत्वत्वं तर्हि यथा प्रतियोगितायाः अवच्छेदकम् अवच्छेदकः धर्मः घटत्वम् इति भवति, तथैव प्रकारतायाः अवच्छेदकः धर्मः एकत्वत्वं भवति खलु. विशेष्यतायाः अवच्छेदकः धर्मः घटत्वं, तथैव प्रकारतायाः अवच्छेदकः धर्मः एकत्वत्वम् एकत्वत्वं भवति. समीचीनम्. हा इदानीं इदानीं दीर्घवाक्यम् अस्ति. हा तत्र किञ्चित् पठतु.
एकत्वत्वावच्छिन्न प्रकारदानिरूपित खण्डादिनिष्ठ विशेष्यतानिरूपित निरूपक ज्ञाननिष्ठ कार्यनिरूपित
तत्र ज्ञानं तावत्पर्यन्तं गच्छामः. तर्हि तत्र किम् उक्तम् अत्र एतावत्?
एकत्वत्वावच्छिन्न कार्यता निरूपित एकत्वत्वावच्छिन्न प्रकारता एकत्वत्वावच्छिन्न प्रकारता निरूपित घटादिनिष्ठ विशेष्यता निरूपक
ज्ञानं इति तावत्पर्यन्तं गच्छामः. तर्हि
एकं एकं घटम् इति
एकः घटः
तद् एकत्वम् इति विशेषता घटः इति विशेष्यता
घटः इति विशेष्यं घटः इति विशेष्यः घटः इति विशेष्यः एकत्वम् इति विशेषणम् विशेषणं विशेष्ये तत्र विशेष्यता अस्ति
विशेषणे प्रकारता अस्ति
प्रकारता अस्ति उत्तमम्. अपि प्रकारता यदि वयं वदति एकत्वे प्रकारता वर्तते इति तदा भवती जानाति खलु तत्र विशेषणम् अस्ति इति एकत्वम् इति विशेषणं भवति इति खलु. यदि अहं वदामि एकत्वम् एकत्वे प्रकारता वर्तते इति यदि वदामि भवती जानाति खलु तर्हि तत्र एकत्वम् इति विशेषणम् अस्ति खलु. हा तदा भवत्याः मनसि प्रश्नः उदेति खलु तर्हि एकत्वं नाम एकः किमपि एकम् अस्ति तत् किम् इति भवत्याः मनसि भवति खलु प्रश्नः. अपेक्षितं किमपि ज्ञानम् अपेक्षितं भवति खलु. केवलम् एकः इति वदामि तेन किमपि पर्याप्तं नास्ति. एकः कः? एकः घटः वा एकः पटः वा इति भवति. तर्हि प्रकारता अस्ति चेत् प्रकारता विशेष्यता तयोः मध्ये तत्र निरूप्यनिरूपकभावः वर्तते. विशेष्यता भवति चेत् प्रकारता भवति एव, प्रकारता भवति चेत् विशेष्यता भवति एव खलु. अतः एव अत्र उक्तं. किमुक्तम्? एकनिमिष. अपि प्रकारता कुत्र वर्तते?
प्रकारता विशेषणे वर्तते.
न अत्र विशेष समीचीनम्. अत्र विशेषणं किम् अस्ति?
एकत्वम्.
एकत्वम् उत्तमं. विशेष्यता कुत्र वर्तते?
खडे विशेष्ये वर्तते. अत्र खडे
वर्तते. समीचीनम्. इदानीं प्रकारता केन अवच्छिन्न?
एकत्वावच्छिन्न
एकत्वत्वावच्छिन्न
एकत्वत्वावच्छिन्न.
तर्हि इदानीं तर्हि तत्र वाक्यं पठतु. तत्र किमस्ति?
एकत्वत्वावच्छिन्न प्रकारदानिरूपित खण्डनिष्ठ विशेष्यतानिरूपित निरूपकज्ञानं.
तर्हि तत्र एकभागे निरूपिता अस्ति, अन्यत्र निरूपकम्
अस्ति.
तर्हि तत्र किमर्थं निरूपितम् इति अस्ति, अन्यत्र निरूपकम् इति अस्ति?
निरूपकं ज्ञानं
विशेष्यता निरूपकं ज्ञानम् इति भवति. समीचीनम्. अपि विशेष्यता प्रकारतया निरूपिता अस्ति खलु?
शेषिदा स्त्रीलिङ्गे अस्ति, प्रकारदा अपि स्त्रीलिङ्गे अस्ति.
अतः तत्र किं कृतं, तत्र एकत्वत्वाव
एकत्वावच्छिन्न एकत्वावच्छिन्न प्रकारदानिरूपित
विशेष्यता अस्ति. किन्तु सा विशेष्यता कीदृशम् अस्ति?
खडनिष्ठ विशेष्यतानिरूपकज्ञान
घटत्वावच्छिन्न विशेषता,
खडत्वावच्छिन्न विशे खडत्वावच्छिन्न विशेष्यतानिरूपितज्ञानम्. खडत्वावच्छिन्न विशेष्यता निरूपकं ज्ञानं,
निरूपकं ज्ञानं. समीचीनं भगिनि. तर्हि ज्ञानं कीदृशमस्ति? विशेष्यता
ज्ञानम् इति कार्यं,
विशेष्यतया निरूपकं ज्ञानम्. विशेषता या अस्ति तया निरूपकं ज्ञानमस्ति. सा विशेष्यता कुत्र अस्ति? घटे
अस्ति,
घटे अवच्छिन्ना अस्ति घटत्वा घटत्वेन. तर्हि घटनिष्ठ घटत्वावच्छिन्न तत्र विशेषणद्वयमस्ति विशेष्यतायाः. एकमस्ति घटनिष्ठा इति खलु, अन्यत् विशेषणमस्ति घटत्वावच्छिन्ना इति. समीचीनं खलु? तर्हि घटनिष्ठा विशेषता, घटत्वावच्छिन्ना विशेषता, विशेषणद्वयं, विशेषणत्रयं वर्तते. तृतीयं विशेषणं किमस्ति तत्र?
एकत्व
न केवलं केवलं प्रकारता इति उपयुज्य वदतु. तत्र प्रकारतया निरूपिता खलु विशेषता. प्रकारता विशेषता तयोः मध्ये निरूप्य निरूपकभावः वर्तते खलु. तर्हि तृतीयं विशेषणमस्ति प्रकारता निरूपिता अथवा प्रकारतया निरूपिता इति.
एकत्वावच्छिन्न प्रकारता निरूपिता खडत्वावच्छिन्न
निरूपिता किम् इत्युक्ते विशेष्यता एव निरूपिता. भवती अवगच्छति वा भगिनि? तत्र विशेषणत्रयं वदतु तर्हि तत्र विशेष्यतायाः.
घटनिष्ठा
इति प्रथमविशेषणम्, उत्तमं.
घटत्वनिष्ठ विशेष्यता तद् द्वितीय
घटत्वनिष्ठ नास्ति, घटत्वे विशेष्यता
घटत्वावच्छिन्ननिष्ठ
मास्तु. घटत्वावच्छिन्न विशेष्यता तर्हि घटनिष्ठा विशेष्यता,
घटत्वावच्छिन्न विशेष्यता
अपि
प्रकारता निरूपित विशेष्य
विशेष्यता इति विशेषणत्रयम्. इदानीं प्रकारता कीदृशी, तस्य विशेषणं, तस्याः विशेषणं किं किम् अस्ति प्रकारतायाः?
एकत्व निष्ठप्रकारता,
उत्तमं भगिनि, तथैव तावदेव अस्ति. तर्हि तत्र प्रकारता विशेषणद्वयम्
एकत्वावच्छिन्न प्रकारता निरूपित
एकमेव तत्र एकत्वावच्छिन्न एकत्वनिष्ठ इति अपि वक्तुं शक्नुमः, किन्तु तद् न उक्तम्. तदनन्तरं प्रकारता इदानीं निरूपित, तया प्रकारतया निरूपित इदानीं किमस्ति?
खडनिष्ठ खडनिष्ठ विशेष्यतानिरूपकज्ञानं. अत्र खडत्व अवच्छिन्न
इति नास्ति, घटत्वावच्छिन्न नास्ति. केवलं विशेष्यता निरूपक
निरूपकज्ञान अनन्तरं ज्ञाननिष्ठ
ज्ञाननिष्ठ इदावत् इदानीम् अग्रे ज्ञाननिष्ठ
कार्यता
निरूपकाश्रय शब्दप्रयोग
शब्दप्रयोग कारण कार्यता
अधोगमने अधोगमने आश्रय
आश्रयः निष्ठ उद्गमने
प्रयोग निष्ठ हा शब्दप्रयोगनिष्ठ
कार्यता निरूपित कारणतायाः आश्रयत्वं संख्या
संख्यायाः लक्षणम् समीचीनं वा अवगतं खलु तर्हि चित्रे किम् अस्ति इति चन्द्रमति भगिनी
अस्तु
हा अस्तु इदानीं मृणालिनी भगिनी धन्यवादः चन्द्रमति भगिनी धन्यवादः हा इदानीं मृणालिनी भगिनी तत्र चित्रे किं किम् अस्ति इति भागं भागं स्वीकृत्य वदतु भगिनि तदनन्तरं मिलित्वा दीर्घवाक्यं वदतु भगिनि
एवं घटे विशेष्यता वर्तते घटे घटत्वमपि धर्म वर्तते तर्हि विशेष्यतायाः विशेषणत्रयं घटनिष्ठविशेष्यता तथा सा घटनिष्ठघटत्वावच्छिन्नविशेष्यता अनन्तरं तृतीयमस्ति प्रकारतानिरूपितविशेष्यता
हा उत्तमं भगिनि हा इदानीं प्रकारता
इति यत् गुणः अस्ति तस्मिन् प्रकारता वर्तते तथा एकत्वे एकत्वं इति धर्मः वर्तते एकत्वं तर्हि एकत्वम् एकत्वनिष्ठप्रकारता तथा एकत्वनिष्ठ एकत्वावच्छिन्नप्रकारता
तत्र एकत्वनिष्ठा इति प्रकारतायाः विशेषणं न तु एकत्वस्य विशेषणं यद्यपि एकत्वं एकत्वे वर्तते किन्तु एकत्वनिष्ठा इत्युक्ते प्रकारता एव तर्हि एकत्वनिष्ठा प्रकारता एकत्वावच्छिन्ना प्रकारता
इदानीं वक्तुं शक्नोमि वा एकत्वनिष्ठा प्रकारता एकत्वावच्छिन्ना या प्रकारता
समीचीनं
प्रकारता निरूपितविशेष्यता निष्ठज्ञानम्
अनिष्ठज्ञानं न तत्र निरूपकं ज्ञानं निरूपकं ज्ञानं
निरूपकज्ञानं ज्ञाने कार्यता ज्ञाननिष्ठकार्यता
किमर्थं ज्ञाने कार्यता वर्तते
यतोहि ज्ञानं शब्दप्रयोगेन जन्यमस्ति
हा उत्तमं भगिनि हा शब्दप्रयोगेन जन्यमस्ति ज्ञानम् अतः ज्ञाने कार्यता वर्तते उत्तमं हा
तर्हि ज्ञाननिष्ठकार्यता निरूपितकारणताश्रयशब्दप्रयोगः
हा
शब्दप्रयोगे कार्यता अपि वर्तते
किमर्थं
हा शब्दप्रयोगे कार्यता यतोहि संख्या जन्य संख्या ज्ञान जन्यं जनकः अस्ति
ज्ञानजनकः नास्ति ज्ञानजनकः अस्ति शब्दप्रयोगः
हा शब्दप्रयोगः ज्ञानजन्यसङ्ख्यागुणः वर्तते
न न न ज्ञानजन्यसङ्ख्या न भवति हा किन्तु तत्र यदि तत्र अत्र घटः वर्तते इति चिन्तयतु घटः वर्तते यदि मम मनसि एकः घटः वर्तते नाम घटे एकत्वम् इति गुणः वर्तते इति यदि मम मनसि ज्ञानं नास्ति तदा अहम् एकः घटः इति वक्तुं शक्नोमि वा?
न
खलु? तर्हि तत्र यदि सङ्ख्या इति गुणः न भवति एकः घटः इति न वक्तुं शक्नुमः खलु? एकः घटः इति शब्दप्रयोगः. शब्दप्रयोगः नाम किम्?
अत्र शब्दप्रयोगे कार्यता वर्तते. कार्यता या निरूपितकारणता आश्रयत्वं सङ्ख्या.
नाम किं सरलरूपेण वदतु तर्हि? नाम यदि
सङ्ख्या ज्ञानम् अस्ति.
न सङ्ख्या ज्ञानं नास्ति. नाम तत्र अतीतः घटः इति एषः घटः आसीत् इति शब्दप्रयोगः भवति खलु? यदि कालः नासीत् एतादृशशब्दप्रयोगः भवति वा? कालः नास्ति चेत् एतादृशप्रयोगः न भवति खलु? घटः आसीत्, घटः भविष्यति इत्यादि प्रयोगाः न कर्तुं न भवति खलु? तर्हि कालः इति अस्ति इति कृत्वा एषः प्रयोगः भवति. तर्हि कालः अपि एतादृशप्रयोगः, तयोः मध्ये कीदृशसम्बन्धः? कालः नास्ति चेत् एतद् न एषः प्रयोगः न भवति. कालः अस्ति अतः एषः प्रयोगः भवति. तर्हि कालः अपि
कार्यकारणता.
कारणं किम्?
काल अस्ति इति कारणं.
कार्यशब्दप्रयोगः खलु
आसीत् इति.
तर्हि शब्दप्रयोगः कार्यमस्ति. तादृशप्रयोगः कार्यं भवति. कार्यं प्रति कारणमस्ति कालः. कालः नास्ति चेत् प्रयोगः न भवति. इदानीं सङ्ख्या नास्ति चेत् एकः घटः इति शब्दप्रयोगः भवति वा? न भवति. अतः एव तत्र सङ्ख्या कारणं भवति शब्दप्रयोगं प्रति खलु?
सङ्ख्या कारणं भवति शब्दप्रयोगम्.
सङ्ख्या नास्ति चेत् एतादृशप्रयोगः न भवति एव. अतः एव तत्र पूर्वम् उक्तं खलु, तत्र पठतु भगिनि, तत्र एकवारं पठतु तत्र. तत्र कालस्य लक्षणवाक्यं स्मरति वा? आरम्भे अतीतादि इति अस्ति.
व्यवहारहेतुः
कालः. उत्तमम्. अतीतादिव्यवहारहेतुः कालः. इदानीं वयं सङ्ख्यायाः लक्षणं कर्तुम् इच्छामः. किम्? एकत्वादिव्यवहारहेतुः. हेतुः नाम
कारणं.
कारणं. व्यवहार नाम शब्दप्रयोगः. व्यवहारहेतुः एकत्वादिव्यवहारस्य कारणमस्ति सङ्ख्या इति वक्तुम् इच्छामः. लक्षणवाक्यं तत् समीचीनं खलु, लक्षणवाक्यं? किन्तु तस्मिन् लक्षणवाक्ये किं के अंशाः अन्तर्भूताः इति चित्ररूपेण प्रदर्शितः अस्ति. यथा वयं तत्र पञ्चपञ्चाशत्तमे पुटे कालस्य लक्षणनिरूपणसमये चित्रं दृष्टवन्तः, तथैव अत्र सङ्ख्यायाः लक्षणचित्रं, लक्षणवाक्यस्य चित्रं निर्मितमस्ति. तर्हि सङ्ख्या कारणं, हेतुः अस्ति. तर्हि सङ्ख्यायां कारणता वर्तते एव खलु? अतः एव तत्र अपि कारणता वर्तते चेत् कारणता निरूपितकार्यता कुत्र वर्तते? शब्दप्रयोगे. यतोहि सङ्ख्या एव कारणमस्ति शब्दप्रयोगं प्रति खलु? अपि शब्दप्रयोगः कार्यमपि अस्ति किन्तु स्वयं कारणमपि अस्ति खलु?
शब्दप्रयोगे कार्यता अपि वर्तते.
संख्या शब्दप्रयोगं प्रति कारणमस्ति, पुनः शब्दप्रयोगः ज्ञानं प्रति कारणमस्ति, खलु? अतः तत्र कारणकार्यकारण तत्र द्वयं तत्र परम्परा भवति अत्र. हा अस्तु, समीचीनं भगिनि. इदानीं इदानीं तत्र प्रकारता इति आरभ्य तत्र सङ्ख्यापर्यन्तं गन्तुम् इच्छामः. तर्हि किं किं चित्रे किं किं निदर्शितम् इति सर्वम् उक्त्वा तत्र एतावत् गच्छामः. तर्हि तत्र
तर्हि
एकत्वनिष्ठ
एकत्वनिष्ठप्रकारता
अथवा एकत्व तत्र विशेषणानि उक्त्वा तदनन्तरं प्रकारता इति वदतु.
एवम् एकत्वनिष्ठप्रकारता एकत्वनिष्ठ एकत्वावच्छिन्नं प्रकारता
निरूपित
घटनिष्ठविशेष्यता घटनिष्ठघटत्वावच्छिन्न विशेष्यता
निरूपकं
ज्ञान निरूपकज्ञान निष्ठकार्यता कार्यता निरूपित कारणताश्रय शब्दप्रयोगः शब्दप्रयोगनिष्ठ कार्यता निरूपित कारणताश्रयः संख्या
संख्या इति भवति. हा उत्तमं भगिनि. इदानीम् एकवारं तत्र पठतु तर्हि तत्र तथा च इति आरभ्य.
तथा च एकत्वावच्छिन्नप्रकार एकत्वावच्छिन्न एकत्वावच्छिन्नप्रकारता निरूपित घटादिनिष्ठ विशेष्यता निरूपित
निरूपक
ज्ञाननिष्ठकार्यता निरूपित कारणताश्रय शब्दप्रयोगनिष्ठ कार्यता निरूपित कारणताश्रयः संख्या
अग्रे तादृश
तादृशकार्यता निरूपित कारणताश्रयत्वं संख्यायाः लक्षणम्.
अतः केवलम् अन्तिमभागस्य भागमेव दत्तम्. एतादृशी कार्यता या शब्दप्रयोगे वर्तते तया कार्यतया निरूपितकारणतायाः आश्रयत्वं यत् सङ्ख्यायां वर्तते तत् आश्रयत्वम् एव सङ्ख्यायाः लक्षणं. नाम तादृशम् आश्रयत्वं सङ्ख्यायां वर्तते, अन्यत्र कुत्रापि न वर्तते, केवलं सङ्ख्यायां वर्तते. लक्ष्ये एव भवति लक्षणं. लक्ष्ये भवेत् अलक्ष्ये न भवेत् खलु. अतः आश्रयत्वं तत्र एव भवति इति अस्ति. समीचीनं भगिनि. हा अस्तु, इदानीं तत्र अग्रे इत्थमेव इति तत्र पठतु भगिनि किञ्चित्.
इत्थमेव च तत्र तत्र योग्यं प्रकारं प्रकारतावच्छेदकं च प्रवेश्य व्यवहारपदघटितानि व्यवहारपदघटितानि लक्षणानि परिष्कर्तुं यदि
सत्यं सत्यं परिष्कर्तुं
यतितव्यम् वयमपि तान् प्रकारान् तत्र दर्शयिष्यामः. इत्थमेव तत्र योग्यं प्रकारं प्रकारतावच्छेदकं च प्रवेश्य व्यवहारपदघटितानि लक्षणानि परिष्कर्तुं यतितव्यम्. एतादृशं प्रयत्नं करणीयम् इति उक्तम्.
सत्यं. हा समीचीनं भगिनि. नाम यतितव्यं किं कर्तुं यतितव्यं परिष्कर्तुं नाम परिष्कर्तुं नाम परिष्कारः परिष्कारं कर्तुं नाम परिष्कारः नाम रिफैन्मेण्ट् पालिशिङ्ग् परिष्कारः नाम केवलं तत्र यदि वयं वदामः एकत्वादिव्यवहारहेतुः इति लक्षणवाक्यम् इति वदामः तेन किञ्चित् अवगच्छामः किन्तु सर्वं न यदि एतादृशवर्णनं कुर्मः यद्यपि दीर्घमिति भासते किन्तु तेन वयम् अवगच्छामः तत्र अस्तु सङ्ख्याति अंशः अस्ति शब्दप्रयोगः इति अंशः अस्ति ज्ञानमिति अंशः अस्ति ज्ञाने ज्ञानस्य विषयद्वयमस्ति तत्र एकस्मिन् विशेष्यता अस्ति अन्यस्मिन् प्रकारता वर्तते अपि प्रकारता केन अवच्छिन्ना इति वर्तते विशेषता केन अवच्छिन्ना इति एतत् सर्वं परिष्कृतं भवति खलु एतत् सर्वम् अस्ति चेत् सम्यक् रीत्या अस्माकम् अवगमनम् अभवत् इति जानीमः खलु हा अतः परिष्कर्तुं यतितव्यं कुत्र अथवा किं परिष्कर्तुं यतितव्यं लक्षणानि कानि लक्षणानि व्यवहार
घटितानि
हा यस्मिन् लक्षणवाक्ये व्यवहारपदमस्ति
यदा यथा एकः घटः इति
व्यवहारहेतुः इति यत्र यत्र लक्षणवाक्यं भवति अत्र लक्षणवाक्यमासीत् एकत्वादिव्यवहारहेतुः सङ्ख्या इति लक्षणवाक्यम्
एकत्वादिव्यवहारहेतुः
सङ्ख्या अतीतादिव्यवहारहेतुः कालः तत्रापि व्यवहारः इति पदमस्ति पदघटितं घटितं लक्षणं नाम लक्षणे लक्षणवाक्ये एकः भागः व्यवहारः इति पदमस्ति तर्हि व्यवहारघटितं लक्षणम् इति वदामः यतोहि व्यवहारः इति पदं लक्षणे आगच्छति तर्हि व्यवहारपदघटितानि लक्षणानि यानि सन्ति तानि परिष्कर्तुं यतितव्यम् अस्माभिः कथं परिष्कर्तुं शक्नुमः इत्थमेव यथा वयम् अत्र कुत्र कृतवन्तः तथैव तत्र तत्र योग्यं प्रकारम् अपि प्रकारता अवच्छेदकं च प्रवेश्य नाम यथा वयं तत्र उक्तवन्तः एकत्वावच्छिन्नप्रकारता तत् तादृशं प्रवेश्य तादृशम् उपयुज्य व्यवहारपदघटितानि लक्षणानि अस्माभिः परिष्कर्तुं यतितव्यं भवति अपि वयमपि अपि लेखकः स्वयं वदति वयमपि
तान् प्रकारान् तत्र तत्र दर्शयिष्यामः
हा यत्र यत्र आवश्यकमस्ति तत्र तत्र प्रकारता का इति वयमपि प्रदर्शयामः दर्शयिष्यामः इति प्रकारं प्रकारः अत्र एकत्वं प्रकारः अस्ति यत्र प्रकारः प्रकारता वर्तते तत्र तत्र प्रकारः कः इति वदामः अत्र एकत्वम् इति प्रकारः घटः इति विशेष्यः अतः यत्र यत्र प्रकाराः भवन्ति तत्र तत्र वयं प्रकारान् दर्शयिष्यामः इति भवति समीचीनमस्ति तर्हि तत्र वयं तत्र अत्र अग्रिमे वाक्ये तु पठतु तत्र मानव्यवहार असाधारणं कारणं परिमाणं व्यवहारः इति अस्ति लक्षणवाक्ये तत्रापि हा परिष्कर्तुं यतितव्यम् अस्माभिः अतः तत्रापि प्रकारः भवति प्रकारस्य अवच्छेदकम् अपि निवेशनीयं भवति इति एतत् सर्वं मनसि निधाय तत्र वयं तत्र प्रयत्नं कुर्मः इति उक्तम् अस्तु समीचीनमस्ति तर्हि तत्र सङ्ख्यायाः परिष्कृतलक्षणवाक्यं अस्माभिः पठितम् अद्य समीचीनमस्ति. अग्रे नूतनविषयः तत्र परिमाणम् इति अन्यः विषयः भवति अग्रिमे सप्ताहे. अग्रिमे सप्ताहे तत्र समयस्य तत्र परिवर्तनं भवति, यतोहि तत्र चिन्तयामि तत्र अमेरिकादेशे समयस्य परिवर्तनं भवति, भारतदेशे वर्गस्य समयस्य परिवर्तनं न भवति, किन्तु अमेरिकादेशे तत्र समयस्य परिवर्तनं भवति. नाम तत्र 8:30 to 10 इति EST समये भवति. अहं तत्र ईमेल् द्वारा प्रेषयामि, सूचयामि. अस्तु, तर्हि धन्यवादाः, नमस्कारः, अग्रिमवर्गे मिलामः तर्हि. धन्यवादः.
धन्यवादः.